ಶ್ರೀ ಆದಿನಾಥಾಯ ನಮೋಸ್ತು ತಸ್ಮೈ ಏನೋಪದಿಷ್ಟಾ ಹಠಯೋಗ ವಿದ್ಯಾ ವಿಭ್ರಾಜತೆ ಪ್ರೋನ್ನತ ರಾಜಯೋಗಂ ಆರೋಢು ನಿಚ್ಚೋರಧಿರೋಹಿಣೀವ. ಗತೇ ಶ್ಲೋಕೆ ಸೀತ್ಕಾರಿ ಪ್ರಾಣಾಯಾಮಃ ತಸ್ಯ ವಿವರಣಮಸ್ಮಾಭಿಃ ದೃಷ್ಟಂ. ಸಪ್ತಪಂಚಾಶತ್ತಮಃ ಶ್ಲೋಕಃ ಶೀತಲೀ ಪ್ರಾಣಾಯಾಮಃ ಏತಾವತಾ ಸೂರ್ಯಭೇದನಂ ಉಜ್ಜಾಯಿ ಸೀತ್ಕಾರಿ ಇತಿ ಅಷ್ಟಸು ಕುಂಭಕೇಶು ತ್ರಯಃ ಕುಂಭಕಾಃ ದೃಷ್ಟಾಃ ಅಧುನಾ ಚತುರ್ಥಃ ಕುಂಭಕ ಪ್ರಭೇದಃ. ಜಿಹ್ವಯಾ ವಾಯುಮಾಕೃಷ್ಯ ಪೂರ್ವವತ್ ಕುಂಭ ಸಾಧನಂ ಶನಕೈರ್ಘ್ರಾಣರಂಧ್ರಾಭ್ಯಾಂ ರೇಚಯೇತ್ ಪವನಂ ಸುಧೀಃ.
ಜಿಹ್ವಯಾ ವಾಯುಮಾಕೃಷ್ಯ ಪೂರ್ವವತ್ ಕುಂಭ ಸಾಧನಂ ಶನಕೈರ್ಘ್ರಾಣರಂಧ್ರಾಭ್ಯಾಂ ರೇಚಯೇತ್ ಪವನಂ ಸುಧೀಃ. ಜಿಹ್ವಯಾ ವಾಯುಂ ಆಕೃಷ್ಯ ಪೂರ್ವವತ್ ಕುಂಭಸಾಧನಂ ಶನಕೈಃ ಘ್ರಾಣರಂಧ್ರಾಭ್ಯಾಂ ರೇಚಯೇತ್ ಪವನಂ ಸುಧೀಃ.
ಸರಳ ಪ್ರಕ್ರಿಯೆ ಅಸ್ತಿ. ಜಿಹ್ವಯಾ ವಾಯುಂ ಆಕೃಷ್ಯ, ತರ್ಹಿ ಶ್ವಾಸಸ್ಯ ವಾಯೋಃ ಸ್ವೀಕಾರಃ ಜಿಹ್ವಯಾ ಕರಣೀಯಃ. ಅನಂತರಂ ಪೂರ್ವವತ್ ಕುಂಭಸಾಧನಂ, ಪೂರ್ವವತ್ ನಾಮ ಸೂರ್ಯಭೇದನ ಪ್ರಕ್ರಿಯಾಯಾಂ ಉಕ್ತ ಪ್ರಕಾರೇಣ ಆಕೇಶಾದಾನಖಾಗ್ರಾಚ್ಚ ನಿರೋಧಾವಧಿ ಕುಂಭ ಏದಿತಿ ಪೂರ್ವತ್ರ ಯದುಕ್ತಂ ತಾವತ್ ಸಮ್ಯಕ್ ಪ್ರಾಣಸ್ಯ ಕುಂಭನಂ ಕರಣೀಯಂ. ಅನಂತರಂ ಕಿಂ ಕರಣೀಯಂ ಶನಕೈಹಿ, ಶನಕೈಹಿ ನಾಮ ಶನೈಹಿ ಇತ್ಯೇವ ಅರ್ಥಃ. ಘ್ರಾಣರಂಧ್ರಾಭ್ಯಾಂ ನಾಸಾಪುಟಾಭ್ಯಾಂ ರೇಚಯೇತ್ ಪವನಂ ಸುಧೀಹಿ. ಸುಧೀಹಿ ಬುದ್ಧಿಮಾನ್ ಕಿಂ ಕುರ್ಯಾತ್ ಇತಿ ಚೇತ್ ಘ್ರಾಣರಂಧ್ರಾಭ್ಯಾಂ ಪವನಸ್ಯ ರೇಚನಂ ಮಂದಂ ಕುರ್ಯಾತ್ ಇತ್ಯರ್ಥಃ. ವಾಯೋಃ ಸ್ವೀಕಾರಃ ಕುತಃ?
ಜಿಹ್ವಯ.
ಜಿಹ್ವಯ ಅನಂತರಂ ಕುಂಭಕಾಭ್ಯಾಸ ಕರಣೀಯ, ಅನಂತರಂ ನಾಸಾಪುಟಾಭ್ಯಾಂ ರೇಚನಂ ಕರಣೀಯಂ ಇತಿ ಪ್ರಕ್ರಿಯಾ. ಅಧುನಾ ತತ್ರ ಜಿಹ್ವಯಾ ವಾಯೋಃ ಆಕರ್ಷಣಂ ಕಥಂ ಕರಣೀಯಂ ಇತಿ. ಉತ್ತಮಃ ಪ್ರಾಣಾಯಾಮಃ ಏಷಃ. ಅಸ್ಮಾಕಂ ಯೋಗಕೇಂದ್ರೇ ಪ್ರಾರಂಭಿಕ ಪ್ರಾಣಾಯಾಮೇಷು ಏಷಃ ಅಪಿ ಪ್ರದೀಯತೆ ಸರ್ವೇಷಾಂ. ತತ್ ಸ್ಟ್ರೆಸ್ ರಿಲೀಫ್ ಭವತಿ, ಟೆನ್ಷನ್ ರಿಲ್ಯಾಕ್ಸ್ ಭವತಿ ಏತೇನ ಪ್ರಾಣಾಯಾಮೇನ. ಅಸ್ಯ ಪ್ರಾಣಾಯಾಮಸ್ಯ ಏವ ನಾಮ ಕಿಮಸ್ತಿ? ಶೀತಲೀ ಇತಿ. ಕಿಂ ಕರೋತಿ? ಶರೀರೇ ಶೈತ್ಯಂ ಆದಧಾತಿ. ಬಹುವಿಧ ಕಾರ್ಯೈಃ ಶರೀರೇ ಔಷ್ಣ್ಯಂ ವರ್ಧತೆ ಕಿಲ, ರಜಃ ವರ್ಧತೆ, ತತ್ಸರ್ವಂ ಇದಂ ನಿವಾರಯತಿ. ಅತಃ ಅತ್ಯಂತ ಉತ್ತಮಃ ಪ್ರಾಣಾಯಾಮಃ ಶೀತಲೀ ಪ್ರಾಣಾಯಾಮಃ. ಅತ್ರ ಜಿಹ್ವಯ ಕಥಂ ವಾಯೋಃ ಸ್ವೀಕಾರಃ ಕರಣೀಯಃ ಇತಿ ಚೇತ್ ಕಿಂಚಿತ್ ವಿಶಿಷ್ಟಂ ವಿವರಣಂ ದತ್ತಂ. ಜಿಹ್ವಯ ಓಷ್ಠಯೋಃ ಬಹಿರ್ ನಿರ್ಗತಯ, ಮತಂ ಜಿಹ್ವಾ ಓಷ್ಠಯೋಃ ಬಹಿಃ ನಿಸ್ಸಾರಣೀಯ. ಅನಂತರಂ ಕಿಂ ಕರಣೀಯಂ? ಕಾಳಿದೇವ್ಯಾಃ ಚಿತ್ರಂ ಭವತಿ ಕಿಲ, ತಥಾ ಓಷ್ಠಯೋಃ ಬಹಿಃ ಜಿಹ್ವಾ ಪ್ರಸಾರಣೀಯ. ಅನಂತರಂ ವಾಯೋಃ ಆಕರ್ಷಣಂ ಕಥಂ ಕರಣೀಯಂ ಇತಿ ಚೇತ್ ವಿಹಂಗಮ ಅಧರ ಚಂಚು ಸದೃಶಯಾ. ಜಿಹ್ವಾ ಕಥಂ ಕರಣೀಯ ಇತಿ ಚೇತ್ ಜಿಹ್ವಾ ಪುಟೀಕರಣೀಯ. ಕಥಂ ಪುಟೀಕರಣೀಯ ಇತಿ ಚೇತ್ ಕಶ್ಚಿತ್ ಪಕ್ಷಿ ಯದಿ ತಸ್ಯ ಅಧರ ಚಂಚುಃ ಭವತಿ ಕಿಲ, ನಮ್ಮ ಪಕ್ಷಿಣಾಂ ಉತ್ತರ ಚಂಚುಃ ಅಧರ ಚಂಚುಃ ಇತಿ ದ್ವಿವಿಧ ಚಂಚವಃ ಭವಂತಿ. ಬೀಕ್ಸ್, ಅಪರ್ ಬೀಕ್, ಅಪರ್ ಪಾರ್ಟ್ ಆಫ್ ದ ಬೀಕ್ ಅಂಡ್ ಲೋವರ್ ಪಾರ್ಟ್ ಆಫ್ ದ ಬೀಕ್. ಲೋಯರ್ ಬೀಕ್ ಕಿಂ ಭವತಿ ಇತಿ ಚೇತ್ ಕಿಂಚಿತ್ ಕಪ್ಡ್ ಭವತಿ ಕಿಲ, ತಥಾ ಜಿಹ್ವಾ ಕರಣೀಯ ಇತಿ. ದ ಟಂಗ್ ಹ್ಯಾಸ್ ಟು ಬಿ ಫೋಲ್ಡೆಡ್, ತಥಾ ದ ಕಪಿಂಗ್ ಆಫ್ ದ ಟಂಗ್ ಹ್ಯಾಸ್ ಟು ಬಿ ಡನ್. ತದೇವ ಜಿಹ್ವಯಾ ಇತಿ. ತಥಾ ಕೃತ್ವಾ ಅನಂತರಂ ವಾಯೋಃ ಆಕರ್ಷಣಂ ಕರಣೀಯಂ. ಸೊ ಕಪಿಂಗ್ ದ ಟಂಗ್ ವಿಚ್ ಹ್ಯಾಸ್ ಎಕ್ಸ್ಟೆಂಡೆಡ್ ಔಟ್ ಸೈಡ್ the mouth, through that inhalation has to be done. Tatha karaniya. Jihvaya vayumakrishya ityasti iyan arthaha pradattaha vartate. Anantaram chanaihi shwasaha svikaraniyaha. Anantaram suryabhedanavat kumbhakasya sadhanam karaniyam. Anantaram mandameva tatra pavanasya rechanam karaniyam. Esha pratyaya shitali iti. Asmakam kendre kim kriyate iti chet keshanchana ಜಿಹ್ವಾ ಕಿಂಚಿತ್ ಸ್ಥೂಲ ಭವತಿ, ತೇನ ಕಾರಣೇನ ಕಿಂ ಕರ್ತುಂ ನ ಪ್ರಭವಂತಿ ಇತಿ ಚೇತ್ ಕಪಿಂಗ್ ದ ಟಂಗ್ तत् कर्तुं न शक्नुवन्ति. फोल्ड् द टङ्ग् रोल् द टङ्ग् इति चेत् ते कर्तुं न शक्नुवन्ति. केषाञ्चन केचन शक्नुवन्ति, केचन न शक्नुवन्ति रोलिङ्ग् द टङ्ग्. अतः किं कुर्मः इति चेत् शीतलीप्राणायामस्य आल्टर्नेटिव् रूपेण शीत्कारीप्राणायामं दद्मः. तत्रापि इन्हलेशन् त्रू द मौत् अण्ड् एक्सलेशन् त्रू द नोस्. अत्रापि इन्हलेशन्, तत्र इन्हलेशन् त्रू द टीत् गैप्स ऑफ द टीत्, अत्र इन्हलेशन् थ्रू द फोल्डेड टंग. अतः हास्य द्वारा एव श्वास स्वीकारः, घ्राणाभ्या घ्राणपुटाभ्याम् एव परित्यागः इति प्रक्रिया समाना. तत्र दन्ताः, अत्र जिह्वा इति. अतः समटाइम्स दीस टू आर गिवन एज अल्टरनेटिव्स. अस्तु, इयं प्रक्रिया. अग्रिमे श्लोके शीतली प्राणायामस्य प्रयोजनम् उच्यते. गुल्मप्लीहादिकान् रोगान् ज्वरं पित्तं क्षुधां तृषां विषाणि शीतली नाम कुम्भिके यन्निहन्तिः.
गुल्मप्लीहादिकान् रोगान् ज्वरं पित्तं क्षुधां तृषां विषाणि शीतली नाम कुम्भिकेयं निहन्तिः. गुल्मप्लीहादिकान् रोगान् ज्वरं पित्तं क्षुधां तृषां विषाणि शीतली नाम कुम्भिका इयं निहन्ति हि.
सम्यक्, अस्तु. इयं कुम्भिका निहन्ति हि, हि नाम निश्चयेन इति. निश्चयेन इति अर्थः पादपूरणार्थं वस्तुतः हि इति पदम् अन्ते योजितमस्ति. इयं कुम्भिका, शीतली नाम कुम्भिका निहन्ति. किं किं निहन्ति? गुल्मप्लीहादिकान् रोगान्. गुल्मप्लीह इत्यादि पदानि तत्र रोग नामानि. गुल्मशब्दस्य तत्र क्लस्टर् आफ् अब्डामिनल् पेन् रिलेटेड् डिसीसस् इति उच्यते. नाम उदरवेदना इति वदन्ति नानाकारणैः, तत्सर्वं गुल्मशब्दवाच्यं भवति. अनन्तरं प्लीहा इति, प्लीहा नाम स्प्लीन् इति, अस्माकं शरीरे स्प्लीन् इति एकम् आन्तरिकम् अवयवं वर्तते. तत् किं करोति इति चेत् इट् फिल्टर्स् ब्लड्. इट् इस् समवेर् सिचुएटेड् नियर् द अब्डामिनल् रीजन्. पठितुं शक्नोति स्प्लीन् इति, गूगल् करोति चेत् तत् कुत्र अस्ति, तत् किं कार्यं करोति इत्यादि तत्र विवरणं प्राप्नोति. तत् स्प्लीन् यदा एन्लार्ज् भवति तदा नानाविधसमस्याः, इम्युनिटि रिलेटेड् प्राब्लम् सर्वं भवति. अतः सः रोगः आयुर्वेदे योगे प्लीहा इति शब्देन उच्यते. एन्लार्ज्मेण्ट् आफ् स्प्लीन् इस् प्लीहा. गुल्मशब्दस्य उदरवेदनासम्बद्धरोगाः गुल्मप्लीहादि एवं प्रभृतिकान् दोष रोगान् शीतली नाम कुम्भिका निहन्ति. शीतली इत्युक्ते नाममात्रेण न निहन्ति. कदा निहन्ति?
अभ्यस्यमाना शीतली.
सत्यम्, अभ्यासेनैव निहन्ति इति. अनन्तरं किं किं निहन्ति भवती एव वदतु. गुल्मप्लीहादिकान् रोगान् निहन्ति. अनन्तरं
ज्वरं निहन्ति, पित्तं क्षुधां.
पित्तं निहन्ति इत्यस्य कः अर्थः? पित्तमेव नाशयति इति न अर्थः. पित्तम् आवश्यकं किञ्चित्. वात पित्त कफा कफाख्यानि त्रीण्यपि आवश्यकानि.
पित्तस्य उद्रेकं नाशयति.
तर्हि पित्तस्य उद्रेकः निहन्यते इति अर्थः. अनन्तरं
क्षुधां.
क्षुधां निहन्ति. क्षुत् नाम
बुभुक्षा.
बुभुक्षां नाशयति. अनन्तरं
तृषा.
तृषा नाम
पिपासा.
एतद् अवगम्यते किल, यदा शीतली बुभुक्षां पिपासां च निवारयति इति उच्यते तस्य किं प्रयोजनं? तर्हि यः शीतली प्राणायामं करोति तस्य बुभुक्षा तृष्णा इत्यादिकं न भवति वा? कः अर्थः तस्य? भोजनं क्रियते चेत् पुनः तत्र नानाविध शारीरिकप्रक्रियाः तत्र निर्वोढव्याः. तस्य तस्य जीर्णप्रक्रिया आरब्धा भवति, अनन्तरं निद्रा करणीया इत्येवं तत्र महती प्रक्रिया तत्र अनुवर्तते. तस्मात् शीतलीय अभ्यासेन शरीरे भोजनस्य आवश्यकता एव न भवति इति. कदाचित् एतदस्ति किं ऋषीणामेव नाम अस्ति, वातरशनाः वा ऋषयश्रमणाः इति वेदे एव उल्लेखः अस्ति. वातः एव तेषाम् अशनं, वायुमेव पिबन्ति. अभक्षाः वायुभक्षाः इत्येवं नानाविध ऋषयः आसन्, केवलं जलं पिबन्तः जीवनं कुर्वन्ति स्म केचन ऋषयः. अभक्षाः वायुभक्षाः नाम केवलम् एतादृशं वातमेव आहारत्वेन, ततः एव प्राणं प्राप्नुवन्तः जीवनं कुर्वन्ति इति. अतः तया दृष्ट्या क्षुधां तृषां च निहन्ति इत्यर्थः तेषां तर्हि अनुष्ठाने सौकर्यं सिद्ध्यति इति. परन्तु सामान्यतः शीतली अग्रे तत्र ज्योत्स्नाव्याख्याने अग्रिमसन्दर्भे उच्यते शीतली शरीरे शैत्यम् आदधाति नाम ये औष्ण्यात् ये ये विकाराः जायन्ते तान् सर्वानपि निवारयति इत्यपि अग्रे विवरणमस्ति. भवतु नाम क्षुधां तृषां निहन्ति, अनन्तरं विषाणि नानाविध विषाणि भवन्ति किल, सर्पदंशनादि द्वारा विषसङ्क्रमणं यदि शरीरे भवति तस्य विनाशनमपि कदाचित् किं भवति, शीतल्या भवितुम् अर्हति इति ग्रन्थकारः अभिप्रैति. तत्र कुम्भिका इत्यस्ति किल, कुम्भशब्दः स्त्रीलिङ्गे अस्ति वा, तस्य प्रयोगः अत्र कुम्भिका इति प्रयोगः अस्ति, कुम्भशब्दस्य स्त्रीलिङ्गे प्रयोगे शिष्टप्रयोगः अस्ति वा, दृश्यते वा अत्र. अयं कृतवान् विषाणि शीतली नाम कुम्भिकेयं निहन्ति इति, कुत्रापि अन्यत्र पार्श्वप्रयोगः अथवा शिष्टप्रयोगः अस्ति वा स्त्रीलिङ्गे इति चेत् नैषधीयचरितस्य उल्लेखः क्रियते. पञ्चमसर्गस्य एकोनविंशतितमे श्लोके उदस्य कुम्भी इति कुम्भशब्दस्य स्त्रीलिङ्गप्रयोगः तत्र दृश्यते इति दर्शयति. प्रयोगप्रदर्शनार्थम् इदं दत्तम् अस्तु. अग्रिमः प्राणायामः भस्त्रिका इति. तत्र भस्त्रिकाप्राणायामस्य प्रक्रिया एकोनषष्टितमश्लोकादारभ्य मम पुस्तके पञ्चषष्टितमश्लोकस्य आद्यपादद्वयपर्यन्तमस्ति, 59-65½ तावत्पर्यन्तं भस्त्रिकाप्रक्रिया एव अस्ति. अतः तावत्पर्यन्तम् अहम् एकदा एव वाचयामि. पूर्वोरुपरि संस्थाप्य शुभे पादतले उभे पद्मासनं भवेदेतत् सर्वपापप्रणाशनम्, सम्यक् पद्मासनं बद्ध्वा समग्रीवोदरस्तुधीः, मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत्, यथा लगति हृत्कण्ठे कपालावधिसस्वनं, वेगेन पूरजेच्चापि हृत्पद्मावधिमारुतं, पुनर्विरेचयेत् तद्वत् पूरयेच्च पुनः पुनः, यथैव लोहकारेण भस्त्रा वेगेन चाल्यते तथैव स्वशरीरस्थं चालयेत् पवनं धिया, यदाश्रमो भवेत् देहे तदा सूर्येण पूरजेत्, यथोदरं भवेत् पूर्णम् अनिलेन तथा लघु, धारयेन्नासिकां मध्यातर्जनीभ्यां विना दृढं, विधिवत् कुम्भकं कृत्वा रेचयेदिडयानिलम्.
ऊर्वोरुपरि संस्थाप्य शुभे पादतले उभे पद्मासनं भवेदेतत् सर्वपापप्रणाशनं, सम्यक् पद्मासनं बद्ध्वा समग्रीवोदरस्सुधीः, मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत्, यथा लगति हृत्कण्ठे कपालावधिसस्वनं, वेगेन पूरयेच्चापि हृत्पद्मावधिमारुतं, पुनर्विरेचयेत्तद्वत् पूरयेच्च पुनः पुनः, यथैव लोहकारेण भस्त्रा वेगेन चाल्यते तथैव स्वशरीरस्थं चालयेत् पवनं धिया, यदाश्रमो भवेद्देहे तदा सूर्येण पूरयेत्, यथोदरं भवेत् पूर्णमनिलेन तथा लघु, धारयेन्नासिकां मध्या तर्जनीभ्यां विना दृढम्, विधिवत् कुम्भकं कृत्वा रेचयेदिडयानिलम्. ऊर्वोः उपरि संस्थाप्य शुभे पादतले उभे पद्मासनं भवेत् एतत् सर्वपापप्रणाशनं, सम्यक् पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः, मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत्, यथा लगति हृत्कण्ठे कपालावधि सस्वनं, वेगेन पूरयेत् च अपि हृत्पद्मावधि मारुतं, पुनः विरेचयेत् तद्वत् पूरयेत् च यथा पुनः पुनः, यथा एव लोहकारेण वस्त्रा वेगेन चाल्यते तथा एव स्वशरीरस्थं चालयेत् पवनं धिया, यदा श्रमः भवेत् देहे तदा सूर्येण पूरयेत्, यथा उदरं भवेत् पूर्णम् अनिलेन तथा लघु, धारयेत् नासिकां मध्यातर्जनीभ्यां विना दृढं विधिवत् कुम्भकं कृत्वा रेचयेत् इडया अनिलम्।
उत्तमं। किमस्ति इति चेत् अत्र एकोनषष्टितमे श्लोके यथा भवती द्रष्टुं शक्नोति कस्मिन् आसने उपवेष्टव्यं भस्त्रिका प्राणायामे इत्युक्तं। कस्मिन् आसने?
पद्मासने।
पद्मासने अनन्तरं षष्टिः एकषष्टिः अनन्तरं द्विषष्टितमश्लोकस्य आद्यपादौ तावत्पर्यन्तं कथं प्रक्रिया करणीया, भस्त्रिका कथम् अनुष्ठातव्या इति विवृतम्। अनन्तरं द्विषष्टितमश्लोकस्य उत्तरार्धभागः, त्रिषष्टितमश्लोकस्य पूर्वार्धभागः, तत्र उदाहरणं केन प्रकारेण करणीयम् इदं भस्त्रिकाकुम्भकम् इत्यत्र उदाहरणं दीयते। अवशिष्टश्लोकाभ्यां नाम अवशिष्टभागेन त्रिषष्टितमश्लोकस्य उत्तरार्धभागः, चतुष्षष्टितमश्लोकः, अनन्तरं पञ्चषष्टितमश्लोकस्य पूर्वार्धभागः, एताभ्यां कथं भस्त्रिकाप्राणायामप्रक्रिया समापनीया, तत्र कुम्भकाभ्यासः कुत्र करणीयः इति तद्विवरणं क्रियते। एवं श्लोकस्थविचारप्रविभागः इदानीं विस्तरेण वयं पश्यामः। अस्य अन्वयः कथं भवति? उपरि उभे शुभे पादतले ऊर्वोः संस्थाप्य इत्यस्ति। ऊर्वोः उपरि संस्थाप्य इति अन्वयः व्याख्यातृसम्मतः न। उपरि उभे शुभे पादतले ऊर्वोः संस्थाप्य इति वक्तव्यम् इति। पादतले ऊर्वोः संस्थाप्य इति आरम्भः भवेत्। पादतलद्वयम् अस्ति किल, सोल् सोल् आफ् द फीट्, तद्द्वयं दे हव् टु बि क्रास्ड् अण्ड् केप्ट् आन् द ऊरु ऊरुभागः। ऊर्वोः 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 इति शब्दे एव किमस्ति, का विभक्तिः अस्ति?
सप्तमी।
सत्यं, सप्तमी द्विवचनं। सप्तमी द्विवचनस्य कः अर्थः? अधिकरणम् इत्यर्थः। तर्हि ऊर्वोः पादतले संस्थाप्य तस्य कः अर्थः? ऊर्वोः उपरि इत्येव अर्थः। ऊर्वधिकरणकं संस्थापनं, कस्य संस्थापनं? पादतलस्य। सो क्रास्ड् तद् स्थापनं। पादतलयोः यदा संस्थापनं क्रियते कीदृशे ते पादतले इत्यस्य विवरणम्। उपरि इति पादतले उपरि भवेताम्। उपरि शब्दस्य कः अर्थः इति चेत् उत्तानम् इति। उत्तानम् इति चेत् फेसिङ्ग् अप्वर्ड्स् इति। नाम प्रथम उपदेशे तत्र शवासनस्य विवरणसन्दर्भे उत्तानशब्दः आगतः, उत्तानं शयनम् इति। तत्र उत्तानशयनं नाम कः अर्थः इति चेत् लयिङ्ग् आन् द बेक् इत्यर्थः, नाम फेसिङ्ग् अप्वर्ड्स् इति। उपरि पश्यद्भिः अस्माभिः यदा शयनं क्रियते तदा तद् उत्तानशयनम् इति उच्यते। एवमेव उपरि शब्दस्य उत्ताने पादतले इत्यर्थः। सो द सोल्स् आफ् द फीट् फेसिङ्ग् अप्वर्ड्स् इति अर्थः उपरि शब्दस्य। उपरि उभे बोथ् द्वे अपि शुभे, शुभे इति शब्दस्य कः अर्थः? शुद्धे इत्यर्थः। नाम शौचकार्यं करणीयं, नाम सम्यक् पादादिकं प्रक्षाल्य उपवेष्टव्यं निर्मले पादतले भवेताम्। बहुत्र सञ्चारः क्रियते, पादतलयोः मालिन्यं भवति। योगाभ्याससन्दर्भे शौच आचरणं करणीयं। पाद न केवलं पादस्य प्रक्षालनं, पादतलस्यापि प्रक्षालनं करणीयम्। अतः शुभे पादतले ऊर्वोः संस्थाप्य असेत् इति अध्याहर्तव्यं, तथा स्थातव्यम् इति। एतत् सर्वपापप्रणाशनं पद्मासनं भवेत्। एवं स्थितिः अस्ति किल, इयं स्थितिः पद्मासनं भवेत्। कीदृशमिदं पद्मासनम्? सर्वपापप्रणाशनम् इति। नाम सर्वपापप्रणाशनं येन ध्यानाभ्यासेन अथवा प्राणायामाभ्यासेन भवति तत्र हेतुभूतम् इदं पद्मासनम् अपि सर्वपापप्रणाशनम् इति। अवगतं वा? यत् कारणीभूतं तत्रैव कार्यस्य आरोपः क्रियते। पद्मासने उपविश्य किं क्रियते? प्राणायामः क्रियते। सः प्राणायामः एव सर्वपापप्रणाशनः। परन्तु तदर्थं हेतुभूतः यः आसनविशेषः तस्मिन्नपि सर्वपापविनाशनत्वं तत्र गौण्यावृत्या स्वीकर्तव्यम् इति। अतः इदं सर्वपापप्रणाशनम् इति उच्यते। तर्हि आरम्भे भस्त्रिकाप्राणायामे पद्मासनस्य बन्धन पद्मासनबन्धः करणीयः। अनन्तरं समग्रीवोदरः सुधीः, सुधीः कश्चित् बुद्धिमान्। अत्र सुधीः सुधीः इति प्रयोगः क्रियते किल, अत्र सुधीः इति शब्दस्य कः अर्थः इति चेत् यः अवधानवान् इत्यर्थः, द वन् हू इस् मैण्ड्फुल् इति। जागरूकतया यः शास्त्रोक्ताम् आचार्योक्तां प्रक्रियां बुद्धिपूर्वकम् अनुसरति सः सुधीः इति। अतः सः एव सुधीशब्दस्य अर्थः अत्र। सः सुधीः कथं भवेत्? समग्रीव उदरः, ग्रीवा च तस्य उदरञ्च समे भवेताम्, नाम ऋजुकायः इत्यर्थः। अप्रैट् तथा उपवेष्टव्यं, स्लौचिङ्ग् न करणीयम् इत्यर्थः। सुधीः सम्यक् पद्मासनं बद्ध्वा, सम्यक् पद्मासनस्य अनुष्ठानं कृत्वा किं कुर्यात् इति चेत् मुखं संयम्य, मुखं सम्यक् पिधाय। इदानीमेव श्वासोच्छ्वासप्रक्रिया भस्त्रिकायाम् उच्यते। मुखं, मुखस्य संयमः करणीयः। अनन्तरं यत्नेन प्रयत्नेन प्राणं वायुं घ्राणेन एकेन नासिकाद्वारेण इत्यर्थः। तत्र घ्राणेन इति अस्ति किल, एकेन नासिकाद्वारेण रेचयेत्। पद्मासने उपवेष्टव्यं, ऋजुतया उपवेष्टव्यं, मुखस्य पिधानं करणीयं, नाम हास्यस्य पिधानं करणीयम्। अनन्तरं यत्नेन एकेन नासापुटेन प्राणस्य रेचनं करणीयम्। अनन्तरं स च वायुत्यागः कथं करणीयः? यत्नेन त्यागः करणीयः इत्युक्तं, पुनः तत्र कः विशेषः अस्ति इति तत्र तस्यैव विवरणं, नाम प्रथमरेचकस्य विवरणम् उच्यते अत्र अग्रे एकषष्टितमे श्लोके। हृत्कण्ठे कपालावधि, हृत्कण्ठे कपालावधि सस्वनं यथा लगति तथा प्राणः रेचयितव्यः इति अध्याहर्तव्यम्। नाम प्राणं रेचयेदिति पूर्वत्र उक्तं किल, तत् कथं तस्य रेचनं करणीयम् इति चेत् हृत्कण्ठे, नाम कण्ठस्य पक्षोभागः अस्ति किल, अत्र हृत् शब्दस्य हृदयम् इति न अर्थः, वक्षः इत्यर्थः। वक्षप्रदेशः अस्ति, अनन्तरं कण्ठ प्रदेशः अस्ति, ततः आरभ्य कपालपर्यन्तं ततः मया रेचनं क्रियते इति महता प्रयत्नेन। As if I am exhaling from the top of the head and from the chest and throat region, तथा समग्रतया। नाम सामान्यतः रेचनं कथं क्रियते अस्माभिः सामान्यप्राणायामसन्दर्भे? नासापुटाद्वारा, नासापुटद्वारा एव, तत्रैव फोकस् भवति। अत्र तु महता राभस्येन, महता प्रयत्नेन अहं मम हृदयप्रदेशात् अथवा वक्षप्रदेशादारभ्य, अनन्तरं कपालप्रदेशादारभ्य श्वासस्य सम्पूर्णतया परित्यागं कुर्वन्नस्मि इति तावान् यत्नः भवेत्, कम्प्लीट् एक्सलेशन्, दट् इस् इण्डिकेटेड् हियर्। हृत्कण्ठे कपालावधि सस्वनम्, शब्देन सह, नाम विना शब्दं तस्य रेचनं न करणीयं, शब्देन सह महता प्रयत्नेन, यथा वक्षोभागात् कपालभागाच्च समग्रतया तावत्पर्यन्तं विद्यमानः सर्वोऽपि प्राणांशः यथा परित्यज्यते, वायुवंशः यथा परित्यज्यते, तथा सस्वनं यथा लगति, तत् सस्वनं यथा अनुभूयते प्राणः, यदा वक्षप्रदेशात् कपालाच्च तत्र वायोः निस्सारणं क्रियते तदा सस्वनं तस्य निस्सारणं करणीयं. सस्वनं यदा निस्सारणं क्रियते सर्वत्रापि तस्य प्राणस्य चलनस्य अनुभवः प्राप्तव्यः इति लगति इति. प्राणः यथा यदा सस्वनं बहिरागच्छति तान् सर्वान् प्रदेशान् स्पृष्ट्वा महता प्रयत्नेन बहिरागच्छति तथा रेचनं करणीयम् इति. एकेन नासापुटेन श्वासस्य त्यागः करणीयः कियता प्रयत्नेन इति एतावता उक्तम्. अनन्तरं रेचनं कृतम्. अधुना किं करणीयम् इति चेत् पूरणं करणीयं. कथं पूरणं करणीयम्? हृत्पद्मावधि वेगेन मारुतं पूरयेत् च अपि. इदानीं प्राणस्य पूर्णतया पूरणं करणीयम्. कियत्पर्यन्तं प्राणः पूर्णः इति भावनीयम्? हृत्पद्मपर्यन्तम्. हृत्पद्मं नाम कः अर्थः इति चेत् तत्र अनाहतचक्रम् इत्युच्यते. हृत्पद्मभागः सामान्यतः यदा अस्माभिः अनुभूयते तत्र लङ्ग्स् द्विधा विभक्तं भवति. तत्र अथवा किं वदन्ति इति चेत् कण्ठात् वितस्ति द्वादश अङ्गुलपर्यन्तं मेजर्मेण्ट् स्वीकरणीयं. नाम अङ्गुलचतुष्टयम् इति चेत् द ब्रेड्थ् आफ् फोर् फिङ्गर्स् एक्स्क्लूडिङ्ग् द थम्ब्. नाम अङ्गुष्ठं विनिवार्य यदि अङ्गुल्यः ऋजुतया प्रसार्यन्ते तदा एकं मेजर्मेण्ट् लभ्यते किल, द विड्थ् आफ् फोर् फिङ्गर्स्, तत् चतुरङ्गुलम् इति उच्यते. कण्ठप्रदेशात् नाम कण्ठे एकः निम्नप्रदेशः अस्ति किल, इस् अ स्लैट् डिप्रेशन् इन् द थ्रोट्, ततः चतुरङ्गुलत्रयं परिमाणं पश्येत् कश्चित्. यत्र द्वादश अङ्गुलप्रमाणस्य समाप्तिः तत् हृत्पद्मम् इति उच्यते. तत् स्थानं तत्र हस्तं स्थापयित्वा वेन् वि फील् पर्टिक्युलर् बोन् रीजन् एण्डिङ्ग्, तदेव हृत्पद्मम् इत्युच्यते. सूर्यचक्रम् इति वदन्ति, अनाहतचक्रम् इत्यादि वदन्ति तत्र षट्चक्रप्रक्रियायाम्. अतः सो द्वादश अङ्गुलदूरे अस्ति कण्ठात्, तदेव स्थानं हृत्पद्मम् इति उच्यते. अतः तावत्पर्यन्तं वेगेन मारुतं पूरयेत्, तावत्पर्यन्तं मम श्वासकोशे वायुः पूर्णः इति. केवलं नासिकाप्रदेशे वायुः पूर्णः इति न भावनीयं, तावत् गभीरतया प्राणः पूर्णः. तदपि कथं पूरणीयः प्राणः? वेगेन. हृत्पद्मावधि वेगेन मारुतं पूरयेत् च अपि इत्येतत् पादपूरणार्थम्. मुखं संयम्य एकेन घ्राणपुटेन प्राणस्य रेचनं करणीयं. कण्ठस्य हृदः च चेस्ट् अण्ड् थ्रोट् तस्मात् प्रदेशात् कपालप्रदेशपर्यन्तं तत्र विद्यमान वायुभागः यः अस्ति स सर्वोऽपि निस्सारितः इति प्रयत्नेन निस्सारणीयम्. अनन्तरं तेनैव नासिकापुटेन किं करणीयम्? प्राणस्य उच्छ्वासः करणीयः. हृत्पद्मपर्यन्तं स च प्राणः पूर्णः, यथा वेगेन पूर्णः तथा भावनया पूरणं करणीयम्. अग्रे एवम् अग्रिमश्लोकः द्विषष्टितमश्लोकः, तद्वत् पुनः विरेचयेत् पुनः पुनः च पूरयेत्. पूर्वोक्तप्रक्रिया यथा अस्ति तथैव पुनः पुनः रेचनं पुनः पुनः पूरणम् एकेनैव घ्राणरन्ध्रेण एवं करणीयम्. अनन्तरं यथा एव लोहकारेण हस्त्रा वेगेन चाल्यते. एतस्य उदाहरणं किं? कथमिदं करणीयम् इति चेत् यथा कश्चित् लोहकारः, प्राचीनकाले लोहकाराः किं कुर्वन्ति इति चेत् ब्लाक्स्मित् किं करोति? अयसः स्वेष्टस्वरूप प्रापणार्थं तत्र अग्नेः उत्तेजनं करोति. सः अग्नेः उत्तेजनार्थं किं करोति? तस्य हस्ते भस्त्रिका अथवा भस्त्रा, बेलोस् इति एकम् उपकरणं भवति. यस्य नोदनेन यस्य प्रयोगेण किं भवति वायुः निस्सारितः भवति अग्नेः दीपनं भवति दीप्तेन अग्निना सह आयसः श्रेष्ठ प्रकार स्वरूपम् आपादयति यथा तां भस्त्रां कश्चित् लोहकारः वेगेन वेगेन चालयति एवमेव वेगेन वेगेन नासापुटेन एकेन उच्छ्वास निःश्वासादिकं करणीयम् उच्छ्वासः निःश्वासश्च करणीयः तथा एव स्वशरीरस्थं पवनं धिया चालये एवं बुद्धिपूर्वकं सावधानं नाम तत्र मनः तत्र भवेत् इट् शुड् नाट् बी मेकानिकल् धिया चालयेत् इति प्रयोगः अवधानार्हः मया रेचनं क्रियते मया अपूरणं क्रियते इति प्राणगतौ मनः तत्र नितान्तं निमग्नं भवेत् मैण्ड्फुल् भवेत् इति अत्रापि यदा देहे श्रमः भवेत् एवं बहुधा कर्तव्यं श्वासस्वीकारः त्यागः वेगेन स्वीकारः वेगेन त्यागः यदा देहे श्रमः भवेत् तदा सूर्येण पूरये तदा सूर्येण नाम सूर्यद्वारेण इत्यर्थः सूर्यद्वारं नाम लेफ्ट् आर् राइट्
दक्षिण
दक्षिणनासापुटेन पूरये तर्हि एकेन ग्राणरन्ध्रेण वेगेन चालनं त्यागः इत्युक्तं किल तत् केन वामनासापुटेन इति वेगेन स्वीकारः वेगेन त्यागः वामनासापुटेन इडया चन्द्रेण करणीयम् अनन्तरं यदा श्रमः भवति तत्र तस्य नासापुटस्य पिधानं करणीयं चन्द्रस्य पिधानं कृत्वा यद्वारा वेगेन प्राणस्य चालनं कृतं सूर्येण पूरणं कुर्यात् वायोः स्वीकारं कुर्यात् यथा उदरम् अनिलेन लघु पूर्णं भवेत् यथा यदा दक्षिणनाड्या अन्तः प्राणः पूर्यते लघु नाम अत्र शीघ्रम् इत्यर्थः उदरं शीघ्रं वायुना यथा पूर्णं भवेत् उदरं कदापि वायुना न पूर्यते उदरं सर्वदापि भोजनेनैव पूर्यते किल तत्र सामान्यतः अस्माकं श्वासोच्छ्वासप्रक्रियया किं पूर्यते उदरं पूर्यते वा श्वासकोशः एव पूर्यते लङ्ग्स् ओन्ली केन् बि फिल्ड् परन्तु उदरम् इति उपलक्षणार्थं किमर्थम् उदरपर्यन्तं यदा अस्माभिः तत्र श्वासपूरणप्रयत्नः क्रियते नाम तेन तया भावनया यदा क्रियते तदा डयफ्रम् इत्यस्ति सः डयफ्रम् विल् बि पुष्ड् वेरि वेल् सो दट् द लङ्ग्स् केन् अकामडेट् मोर् एर् इन् टु इट् अतः किम् उच्यते उदरं यथा पूर्यते तत् भावयित्वा करोतु इति उच्यते अतः उदरम् इति प्रयोगः नाम पूर्वजाः मूर्खाः न उदरं वायुना पूर्यते इत्यस्य गङ्गायां घोषः इति अर्थः स्वीकरणीयः अत्रापि अतः यथा उदरम् अनिलेन लघु नाम शीघ्रं पूर्णं भवेत् तथा सूर्येण पूरयेत् इति उक्तम् अनन्तरं किं करणीयं मध्यात् अर्जनीभ्यां विना अस्माकं पञ्च अङ्गुल्यः सन्ति अङ्गुलीनां नाम जानाति वा
कनिष्ठिका अनामिका मध्या तर्जनी अनन्तरम् अङ्गुष्ठः अस्ति
अङ्गुष्ठः तो मध्यात् अर्जनीभ्यां विना मध्यात् अर्जन्योः त्यागः नाम निष्कासनं करणीयं किं करणीयम् इति चेत् तत्र तन्निष्कास्य नासिका धारणीया इति उदरं सूर्येण पूरितं वायुम् आकृष्य उदरस्य पूरणं कृतम् अधुना नासिका बद्धव्या अङ्गुष्ठेन यदि दक्षिणहस्तस्य उपयोगः क्रियते अङ्गुष्ठेन सूर्यद्वारस्य पिधानं भवति अनामिका कनिष्ठिका अनामिकाभ्यां वामद्वारस्य पिधानं भवति मध्यातर्जन्योः अत्र नासिकाबन्धने पात्रं नास्ति मध्यातर्जन्योः उपयोगः न करणीयः इति मध्यातर्जनीभ्यां विना प्राणायामसन्दर्भे भवति सामान्यतः सन्ध्यावन्दनादिसमये ಜನಾ ಪ್ರಾಣಾಯಾಮಂ ಕುರುವಂತಿ ಕಿಲ ತಸ್ಮಿನ್ ಸಂದರ್ಭೇಪಿ ಭವತಿ ದ್ರಷ್ಟುಂ ಶಕ್ನೋತಿ ಮಧ್ಯಾತರ್ಜನ್ಯೋ ಉಪಯೋಗಃ ನ ಭವತಿ. ಅಂಗುಷ್ಠಸ್ಯ ಅನಂತರಂ ಕನಿಷ್ಠಿಕಾ ಅನಾಮಿಕಯೋ ಪ್ರಯೋಗಃ ಭವತಿ. ವಾಮ ನಾಸಿಕಾ ಪಿಧಾನಾರ್ಥಂ ದಕ್ಷಿಣಹಸ್ತಸ್ಯ ಕನಿಷ್ಠಿಕಾ ಅನಾಮಿಕಯೋ ಪ್ರಯೋಗಃ. ದಕ್ಷಿಣ ವಾಯುದ್ವಾರಸ್ಯ ಪಿಧಾನಾರ್ಥಂ ಅಂಗುಷ್ಠಸ್ಯ ಪ್ರಯೋಗಃ ಭವತಿ. ತದಾ ಮಧ್ಯಾತರ್ಜನ್ಯೋ ಫೋಲ್ಡೆಡ್ ಸ್ಥಿತಿಹಿ ಭವತಿ. ಸೊ ಅಂಗುಷ್ಠ ಇಸ್ ಎಕ್ಸ್ಟೆಂಡೆಡ್, ಕನಿಷ್ಠಿಕಾ ಅನಾಮಿಕಾ ಇಸ್ ಎಕ್ಸ್ಟೆಂಡೆಡ್ ಅಂಡ್ ಮಧ್ಯಾತರ್ಜನ್ಯೋ ಯದಾ ಪುಟೀಕರಣಂ ಕ್ರಿಯತೆ ಸಾ ಮುದ್ರಾ ಮೃಗೀ ಮುದ್ರಾ ಇತಿ ಉಚ್ಯತೆ. ತಯಾ ಮೃಗೀ ಮುದ್ರೆಯ ಸಾಮಾನ್ಯತಃ ಜನಾ ಪ್ರಾಣಾಯಾಮಂ ಕುರುವಂತಿ ತಯಾ ಮುದ್ರೆಯ ಏವ ತತ್ರ ಮಧ್ಯಾತರ್ಜನ್ಯೋ ಪ್ರಯೋಗಃ ನ ಭವತಿ. ಅತಃ ಮಧ್ಯಾತರ್ಜನೀಭ್ಯಾಂ ವಿನಾ ದೃಢಂ ನಾಸಿಕಾಂ ಧಾರಯೇ ಸೂರ್ಯೇಣ ಪೂರಯಿತ್ವಾ ಏವಂ ನಾಸಿಕಯೋ ಧಾರಣಂ ಕರಣೀಯಂ ನಾಸಾಪುಟಸ್ಯ ಪಿಧಾನಂ ಕರಣೀಯಂ. ವಿಧಿವತ್ ಕುಂಭಕಂ ಕೃತ್ವಾ, ವಿಧಿವತ್ ಕುಂಭಕಂ ಕೃತ್ವಾ ಇತಿ ಚೇತ್ ಕಃ ಅರ್ಥಃ?
ಬಂಧಪೂರ್ವಕ.
ಬಂಧಪುರಸ್ಸರಂ ಯತ್ರ ಯತ್ರ ವಿಧಿವತ್ ಇತಿ ಪ್ರಯೋಗಃ ತತ್ರ ಸರ್ವತ್ರಾಪಿ ಬಂಧಪುರಸ್ಸರಂ ಇತಿ ಸ್ಮಾರ್ಯತೆ. ಬಂಧಪುರಸ್ಸರಂ ಕುಂಭಕಂ ಕೃತ್ವಾ ಅನಿಲಂ ಇಡಯಾ ರೇಚಯೇ ವಾಮನಾಸಾಪುಟೇನ ಅನಿಲಸ್ಯ ವಾಯೋ ತ್ಯಾಗ ರೇಚ ಕರಣೀಯ ಇತಿ. ಇಯಂ ಪ್ರಕ್ರಿಯಾ ಭಸ್ತ್ರಿಕಾಯಾಹ ವಿವರಣಂ ಕೃತಂ ಅಸ್ಯ ಇದಂ ಕುರ್ಮಃ ಅಗ್ರೇ ತಸ್ಯ ಪ್ರಯೋಜನಾಧಿಕಂ ಅಗ್ರೇ ಪಶ್ಯಾಮಃ. ಶ್ರೀ ಆದಿನಾಥಾಯ ನಮೋಸ್ತು ತಸ್ಮೈ ಯೇನೋಪದಿಷ್ಟಾ ಹಠಯೋಗ ವಿದ್ಯಾ ವಿಭ್ರಾಜತೆ ಪ್ರೋನ್ನತ ರಾಜಯೋಗಂ ಆರೋಢ ವಿಚ್ಛೋ ರಥಿರೋಹಿಣೀವ.